व्यक्ताव्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृतप्रक्षये मायायां गुणसाम्यरुद्धविकृतौ त्वय्या गतायां लयं नो मृत्युश्च तदा अमृतं च समभूत् नाह्नो न रात्रेः स्थितिः तत्र एकस्त्वम् असिष्यथाः किल परानन्दप्रकाशात्मना कालः कर्मगुणाश्च जीवनिवहाः विश्वं च कार्यं विभो चिल्लीलारतिं येयुषि त्वयि तदा निर्लीनताम् आययुः तेषां नैव वदन्ति असत्त्वमयि भोः शक्त्यात्मना तिष्ठतां नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत् सम्भवः एवं च द्विपरार्धकालविगतौ ईक्षां सिसृक्षात्मिकां बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयं मायातः खलु कालशक्तिः अखिलादृष्टं स्वभावोऽपि च प्रादुर्भूय गुणान्विकास्य विदधुः तस्याः सहायक्रियां मायासन्निहितः अप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिम्बितो विविशिवान् जीवोऽपि नैवापरः कालादिप्रतिबोधिताथ भवता सञ्चोदितञ्च स्वयं माया सा खलु बुद्धितत्त्वम् असृजत् योऽसौ महान् उच्यते तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानस्वयं जीवेऽस्मिन् खलु निर्विकल्पम् अहमिति उद्बोधनिष्पादकः चक्रेऽस्मिन् सविकल्पबोधकम् अहन्तत्वं महान् खलु असौ सम्पुष्टं त्रिगुणैः तमोतिबहुलं विष्णो भवत्प्रेरणात् सोऽहं च त्रिगुणक्रमात् त्रिविधताम् आसाद्यवैकारिकः भूयस्तैजसतामसौ इति भवन् आद्येन सत्त्वात्मना देवान् इन्द्रियमानिनो कृत दिशावातार्कपाश्यश्विनः वह्नीन्द्राच्युतमित्रकान् विधुविधि श्रीरुद्रशारीरकान् भूमन् मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं तच्छान्तःकरणं विभो तव बलात् सत्त्वांश एवासृजत् जातस्तैजसतो दशेन्द्रियगणः तत्तामसांशात् पुनः तन्मात्रं नभसो मरुत्पुरपते शब्दो जनि त्वद्बलात् शब्दात् व्योम ततः ससर्जित विभो स्पर्शं ततो मारुतं तस्माद्रूपम् अथो महोथचरसं तोयञ्च गन्धं महीं एवं माधव पूर्वपूर्वकलनात् आद्याद्यधर्मान्वितं भूतग्राममिमं त्वमेव भगवन् प्राकाशयः तामसात् एते भूतगणाः तथेन्द्रियगणाः देवाश्च जाताः पृथक् नो शेकुः भुवनाण्डनिर्मितिविधौ देवैः अमीभिस्तदा त्वं नानाविधसूक्तिभिः नुतगुणः तत्त्वानि अमूनि आविशन् चेष्टाशक्तिम् उदीर्य तानि घटयन् हैरण्यम् अण्डं व्यथाः अण्डं तत्खलु पूर्वसृष्टसलिले अतिष्ठत् सहस्रं समाः निर्भिन्दन् अकृथाः चतुर्दशजगद्रूपं विराडाह्वयं साहस्रैः करपादमूर्धनिवहैः निःशेषजीवात्मकः निर्भातोऽसि மருத்புராதிபா சமாம் த்ராயஸ்வ சர்வாமயாத். ஓம் தத்சதிதி ஸ்ரீமன்னாராயணீயே பஞ்சமம் தசகம் சமாப்தம். ஸ்ரீஹரயே நம. ரமா ரமண கோவிந்தா கோவிந்தா. ஸ்ரீகிருஷ்ணார்ப்பணமஸ்தூ.